भगवान को सादर प्रणाम करने के पश्चात भगवत स्वरूप श्रीमद् भागवत महापुराण को प्रणाम करने के पश्चात श्रीमद् भागवत के तत्वान्वेषी समस्त संत महापुरुषों के श्री चरणों में कोटि कोटि से सादर प्रणाम करने के पश्चात सर्वजन हितार्थाय भागवत के मूल पाठ को आज भाद्रपद शुक्ला चतुर्थी गणेश चतुर्थी के दिन संवत विक्रम संवत 2077 तदनुसार 22 अगस्त 2020 शनिवार से भागवत का मूल पाठ प्रारंभ कर रहे हैं। सभी ऋषि मुनि महापुरुष आशीर्वाद देंगे और आशीर्वाद का स्रोत तो भगवान और ये स्वयं भगवत स्वरूप श्रीमद् भागवत महापुराण है ही। फिर भी अपने आप की दुर्बलता मानते हुए जितनी कृपा को बटोर सकूं उन सब की कृपाओं को बहुत आवश्यक समझता हूं। सर्वप्रथम श्रीमद् भागवत के महात्म्य को पढ़ता हूं। ओम नमो भगवते वासुदेवाय श्रीमद् भागवत महात्म्यम् अथ प्रथमोध्याय सच्चिदानंद रूपाय विश्वोत्पत्यादि हेतवे तापत्रय विनाशाय श्रीकृष्णाय वयम् नुमः। यम प्रव्रजन्तमनुपेतमपेतकृत्यम् द्वैपायनो विरहकातर आजुहाव पुत्रेति तन्मयतया तरवोभिनेदुस्तम् सर्वभूतहृदयम् मुनिमानतोऽस्मि। नैमिषे सूतमासीनम् अभिवाद्य महामतिम् कथामृतरसास्वादकुशलः शौनको ब्रवीत्। शौनक उवाच अज्ञानध्वान्तविध्वंसकोटिसूर्यसमप्रभ सूताख्यायि कथासारम् मम कर्णरसायनम्। भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् मायामोह निराशश्च वैष्णवे क्रियते कथम्। इह घोरे कलौ प्रायो मज्जीवश्चासुरताङ्गतः क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम्। श्रेयसां यद्भवच्छ्रेय पावनानां च पावनम् कृष्णप्राप्तिकरम् शश्वत्साधनम् तद्वदाधुना। चिन्तामणिर्लोकसुखम् सुरद्रुः स्वर्गकसम्पदम् प्रयच्छति गुरुप्रीतो वैकुण्ठम् योगि दुर्लभम्। सूत उवाच प्रीतिशौनकचित्तेते यतो वस्मि विचार्य च सर्वसिद्धान्तनिष्पन्नम् संसारभयनाशनम् भक्तियोगवर्धनम् यच्च कृष्णसन्तोषहेतुकम् तदहम् ते विधास्यामि सावधानतया शृणु। कालव्यालमुखग्रासत्रासनिर्णाशहेतवे श्रीमद्भागवतम् शास्त्रम् कलौकीरेण भाषितम्। एतस्मादपरम् किञ्चित् मनः शुद्ध्यै न विद्यते जन्मान्तरे भवेत् पुण्यम् तदा भागवतम् लभेत्। परीक्षिते कथाम् वक्तुम् सभायाम् संस्थिते शुके सुधाकुम्भम् गृहीत्वैव देवास्तत्र समागमन्। शुकम् नत्वा वदन् सर्वे स्वकार्यकुशलासुराः कथासुधाम् प्रयच्छस्व गृहीत्वैव सुधामिमाम्। एवम् विनिमये जाते सुधाराज्ञा प्रपीयताम् प्रपास्यामो वयम् सर्वे श्रीमद्भागवतामृतम्। क्व कथा क्व सुधा क्व कथा लोके क्व काच क्व मणिर्महान् ब्रह्मरातो विचार्येवम् तदा देवान् जहासः। अभक्तांस्तांश्च विज्ञाय न ददौ स कथामृतम् श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा। राज्ञो मोक्षम तथा वीक्षे पुरा धाता अपि विस्मित है सत्यलोके तुला बुद्ध्वा तोलयत साधनान्यज लघुन्यन्यानि जातानि गौरवेणैदं महत् तदा ऋषिगणा सर्वे विस्मयं परमं ययुः मेनिदे भगवद् रूपं शास्त्रं भागवतं कलौ पठनात् श्रवणात् सद्यो वैकुंठ फलदायकम् सप्ताहेन श्रुतम् चैतत् सर्वथा मुक्तिदायकम् सनकाद्यैः पुरा प्रोक्तम् नारदाय दयापरैः यद्यपि ब्रह्म सम्बन्धात् श्रोतुमेतत् सुरर्षिणा सप्ताह श्रवण विधिः कुमारैस्तस्य भाषितः शौनक उवाच लोक विग्रह मुक्तस्य नारदस्यास्थिरस्य च विधिश्रवे कुतः प्रीति संयोग कुत्र तैः सह सूत उवाच अत्र ते कीर्तयिष्यामि भक्तियुक्तम् कथानकम् शुकेन मम यत् प्रोक्तम् रहशिष्यम् विचार्य च एकदा हि विशालायाम् चत्वार ऋषयो मलाः सत्सङ्गार्थम् समायातः ददृशोस्तत्र नारदम् कुमारा ऊचुः कथम् ब्रह्मन्दीन्मुखः कुतश्चिन्ता परो भवान् त्वरितम् गम्यते कुत्र कुतश्चागमनम् तव इदानीम् शून्यचित्तोऽसि गतवित्तो यथा जनः तवेदम् मुक्तसङ्गस्य नोचितम् वद कारणम् नारद उवाच अहम् तु पृथिवीम् यातो ज्ञात्वा सर्वोत्तमामिति पुष्करम् च प्रयागम् च काशीम् गोदावरीम् तथा हरिक्षेत्रम् कुरुक्षेत्रम् श्रीरङ्गम् सेतुवन्दनम् एवमादिषु तीर्थेषु ब्रह्ममाणः इतस्ततः नापश्यम् कुत्रचिच्छर्म मनसन्तोषकारकम् कलिना धर्ममित्रेण धरेयम् बाधिताधुना सत्यम् नास्ति तपः सत्यम् दयादानम् सत्यम् नास्ति तपः शौचम् दयादानम् न विद्यते उदरम् भरिणो जीवा वरा काकूटभाषिणः मन्दासु मन्दमतयो मन्दभाग्यायुपद्रुताः पाखण्डनिरताः सन्तो विरक्ताः स परिग्रहः तरुणी प्रभुता गेः शालको बुद्धिदायकः कन्या विक्रयिणो लोभात् दम्पतीनाम् च कल्कनम् आश्रमायवनैरुद्धास्तीर्थानि सरितस्तथा देवायतनान्यत्र दुष्टैर्दुष्टानि भूरिशः न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः कलिदावानले नाद्य साधनम् भस्मताङ्गदम् अट्टशूलाः जनपदाः शिवशूला द्विजातयः कामिन्यः केशशूलिन्यः सम्भवन्ति कलाविव एवम् पश्यन् कलेर्दोषान् पर्यटन्नवनीमहम् यामुनम् तटमापन्नो यत्र लीला हरेरभूत् तत्राश्चर्यम् मया दृष्टम् श्रूयताम् तन्मुनीश्वरः एका तु तरुणी तत्र निषण्णा खिन्नमानसा वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्तौ अचेतनौ शुश्रूषन्ति प्रबोधन्ति रुदति च तयोः पुरः दिज्ञा दशदिक्षु निरीक्षन्ति रक्षितारम् निदम् वपुः विद्यमाना शतस्त्रीभिर्बोधमाना मुहुर्मुहुः दृष्ट्वा दूराद् गतः सोऽहम् कौतुकेन तदन्तिकम् माम् दृष्ट्वा चोत्तिथा बाला विह्वला चाब्रवीद्वच बालोवाच भोवो साधो क्षणम् तिष्ठ मच्चिन्तामपि नाशय दर्शनम् तव लोकस्य सर्वथागारम् परम् बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति यदा भाग्यम् भवेद् भूरि भवतो दर्शनम् तदा नारद उवाच काशी त्वम् क्व विमौ चेमा नार्य का पद्मलोचना वेददेवी सविस्तारम् स्वस्य दुःखस्य कारणम् बालोवाच अहम् भक्तिरिति ख्याता इमौ मे तनयौ मतौ ज्ञान वैराग्य नामानौ कालयोगेन जर्जरौ गङ्गाद्या सरितश्चेमा मत्सेवार्थम् समागताः तथापि न च मे श्रेयः सेविताया सुरैरपि इदानीम् शृणु मद्वार्ताम् सच्चित्तस्त्वम् तपोधन वार्ता मे वितताप्यस्ति ताम् श्रुत्वा सुखमावह उत्पन्ना द्रविडेशाहम् वृद्धिम् कर्णाटके गता क्वचित् क्वचित् महाराष्ट्रे गुर्जरे जीर्णताङ्गता तत्र घोरकलेर्योगात् पाखण्डै खण्डिताङ्गका दुर्बलाम् चिरम् यातात् पुत्राभ्याम् सह मन्दताम्
वृंदावनम पुनः प्राप्य नवीनेयम स्वरूपिणी जाताम युवती सम्यक पृष्ठ रूपा च सांप्रदम इमौ तौ शायितौ अत्र सुतौ मे क्लिश्यत श्रमात् इदम् स्थानम् परित्यज्य विदेशं गम्यते मया जरठत्वं समायातौ तेन दुःखेन दुःखिता साहं तु तरुणी कस्मात् सुतौ वृद्धौ इमौ कुतः त्रयाणां सचारित्वाद् वै परित्यं कुतः स्थितम् घटते जरठा माता तरणौ तनयाविति अथ शोचामि चात्मानं विस्मयाविष्टमानसा वदयोगनिधेधीमन् कारणं चात्र किं भवेत् नारद उवाच ज्ञानेनात्मनि पश्यामि सर्वमेतत्तवानघे न विषादस्त्वया कार्यो हरिष्यन्ते करिष्यति सूत उवाच क्षणमात्रेण तज्ज्ञात्वा वाक्यमूचे मुनीश्वरः नारद उवाच शृणुष्वावितो बाले योगोऽयं युगो शृणुष्वावहिता बाले युगोऽयं दारुणकली तेन लुप्त सदाचारो योगमार्गास्तपांसि च जनाघासुरायन्ते साठ्य दुष्कर्मकारिणः ये सन्तो विषीदन्ति प्रहरिष्यन्ति यसाधवः दत्ते धैर्यं तु यो धीमान् स धीर पण्डितोऽथवाम् अस्पृश्यानवलोक्येयं शेषभारकरीधरा वर्षे वर्षे क्रमाज्जाता मंगलं नाभिदृश्यते न त्वामपि सुतैः साकं कोऽपि पश्यति साम्प्रतम् उपेक्षितानुरागान्धैर्जर्जरत्वेन संस्थिता वृन्दावनस्य संयोगात् पुनस्त्वं तरुणी नव धन्यं वृन्दावनं तेन भक्तिर्नृत्यते अत्र च अत्रेमौ ग्राहका भावान्न जरामपि मुञ्चत किञ्चिदात्मसुखेनेह प्रसुप्तिर्मन्यते नयोः भक्तिरुवाच कथं परीक्षिता राज्ञा स्थापितो यशुचिकली प्रवृत्ते तु कलौ सर्वसार कुत्र गतो महान् करुणापरेण हरिणाप्यधर्म कथमीक्षते इमं मे संशयं छिन्धी त्वद्वाचा सुखितास्म्यहम् नारद उवाच यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु सर्वं वक्ष्यामि ते भद्रे कस्मलन्ते गमिष्यति यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा पद्स्वपदं गतः तद्दिनात् कलिरायातः सर्वसाधनबाधकः दृष्टो दिग्विजयराज्ञा दीनवत्सरणं गतः न मया मारणीयोऽयं सरसारङ्गैव सारभुक् यत्फलं नास्ति तपसा न योगेन समाधिना तत्फलं लभते सम्यक् कलौ केशव कीर्तनात् एकाकारं कलिं दृष्ट्वा सारवत्सार नीरसम् विष्णुरात स्थापितवान् कलिजानां सुखाय च सुकर्मा कुकर्माचरणात् सार सर्वतो निर्गतोऽधुना पदार्था संस्थितः भूमौ बीजहीनास्तु सा यथा विप्रैर्भागवती वार्ता गेहे गेहे जने जने कारिता कणलोभेन कथासारस्ततो गतः अत्युग्रभूरि कर्माणो नास्तिकारौरवा जनाः तेऽपि तिष्ठन्ति तीर्थेषु कथासारस्ततो गतः कामक्रोधमहालोभ तृष्णा व्याकुल चेतस तेऽपि तिष्ठन्ति तपसि तपःसारस्ततो गतः मनसश्चाज्याल्लोभाद्दम्भात् पाखण्ड संश्रयात् शास्त्रानभ्यसनाच्चैव ध्यानयोगफलङ्गतम् पण्डितास्तु कलत्रेण रमन्ते महिषा इव पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने नहि वैष्णवता कुत्र सम्प्रदाय पुरःसरा एवं प्रलयताम् प्राप्तो वस्तुसारः स्थले स्थले अयं तु युगधर्मो हि वर्तते कस्य दूषणम् अतस्तु पुण्डरीकाक्ष सहते निकटे स्थितः सूत उवाच इति तद्वचनम् श्रुत्वा विस्मयम् परमङ्गता भक्तिरुचे वचो भूय श्रूयताम् तच्च शौनक भक्तिरुवाच सुरर्षे त्वम् धन्योऽसि मद्भाग्येन समागतः साधूनाम् दर्शनम् लोके सर्वसिद्धिकरम् परम् जयति जगति मायाम् यस्य कायाधवस्ते वचनरचनमेकम् केवलम् चाकलय्यम् ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयम् सकलकुशलपात्रम् ब्रह्मपुत्रम् नतास्मि इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवत महात्म्ये भक्तिनारदसमागमो नाम प्रथमोऽध्यायः।